इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य बिहार प्रदेशस्य जमुई क्षेत्रं प्रति यात्रारतो भविष्यति। प्रधानमन्त्रिणः इयं यात्रा जनजातीय गौरव दिवसम् उपलक्ष्य अथ च भगवतः बिरसा मुण्डा इत्येतस्य 50-तमस्य जयन्ती समारोहस्य अवसरे महत्वपूर्णा अस्ति। अत्रावसरे प्रधानमन्त्री एकस्याः स्मारक मुद्रायाः प्रैष्य चीटिकायाः च अनावरणं करिष्यति। श्रीमोदी ग्रामीण दूरस्थ क्षेत्रेषु आदिवासी समुदायानां विकासाय 44,600,000,000,000 रूप्यकाणां विकास परियोजनानां उद्घाटनं शिलान्यासं च विधास्यति। प्रधानमन्त्री तदनु प्रधानमन्त्री जनजाति आदिवासी न्याय महाभियानस्य पीएम जनमन इत्येतस्य अन्तर्गतं निर्मितानां 11,000 आवासानां गृहप्रवेशार्थं भागम् अपि स्वीकरिष्यति। अत्रावधौ मध्यप्रदेशस्य छिन्दवाड़ा जबलपुरयोः द्वयोः आदिवासी स्वतन्त्रता सेनानी संग्रहालयोः जम्मू कश्मीरस्य श्रीनगरे सिक्किमस्य च गंगटोके द्वयोः आदिवासी शोध संस्थानयोरपि उद्घाटनं विधास्यते। अवधेयं वर्तते यत् प्रतिवर्षं नवम्बर मासस्य 15 दिनांके भगवतः बिरसा मुण्डा इत्येतस्य जयन्त्यवसरे जनजातीय गौरव दिवसः आचर्यते। अशेषे हि राष्ट्रे अद्य गुरुनानक जयन्ती उतवा गुरुपर्व सोत्साहं परिपाल्यते। अयं शुभदिवसः सिखधर्मस्य प्रथमस्य गुरोः गुरुनानक देववर्यस्य जन्मदिवसस्य प्रतीको विद्यते, येन हि सिखधर्मः स्थापितः। अस्मिन् दिने समग्रविश्वस्य भक्ताः प्रार्थनाम् आचरन्ति इति शुभावसरेऽस्मिन् राष्ट्रपतिः द्रौपदी मुर्मू सर्वेभ्यः जनेभ्यः शुभकामनाः प्रदत्तवती। स्वसन्देशे राष्ट्रपतिः भारते निवसतां विदेशेषु च निवसतां भारतीयजनानां कृते निज शुभवचांसि समर्पितवती। उपराष्ट्रपतिना च जनेभ्यः शुभकामनाः प्रकटिताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य नवदिल्ल्यां प्रथमं बोडोलैण्ड महोत्सवम् उद्घाटयिष्यति। द्विदिवसीयस्य अस्य महोत्सवस्य उद्देश्यं भाषा साहित्य संस्कृतीञ्च आधृत्य शान्तिस्थापनं जीवन्तस्य बोडो समाजस्य च निर्माणमिति वर्तते। प्रधानमन्त्री कार्यालयेन ज्ञापितं यत् अस्य महोत्सवस्य उद्देश्यं न केवलं बोडोलैण्ड इत्यस्मिन् अपितु असम पश्चिम बंगाल नेपाल इत्यादिषु पूर्वोत्तरीय भागेषु च निवसतां जनानां एकीकरणम् इति अस्ति। अस्य महोत्सवस्य शीर्षको विद्यते समृद्ध भारताय शान्तिः सद्भावश्च इति। झारखण्ड राज्ये विधानसभा निर्वाचनस्य प्रथमचरणस्य मतदानानन्तरं द्वितीय चरणीय मतदानार्थं प्रचाराभियानं द्रुततां भजते। अनेके वरिष्ठ नेतारः स्वक्षेत्रे नैकाः जनसभाः सम्बोधयन्ति। भाजपेति दलस्य वरिष्ठो नेता तथा च उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः धनबादे नैर्वाचनिक जनसभाम् एकां सम्बोधितवान्। अत्रावसरे सः आक्षिप्तवान् यत् झामुमो सर्वकारेण राज्ये आव्रजकेभ्यः जनेभ्यः अवैधरीत्या प्रवेशार्थम् अनुमतिः प्रदत्ता। अपरत्र झामुमो दलस्य वरिष्ठो नेता मुख्यमन्त्री च हेमन्तसोरेनः अविकसितस्य झारखण्ड राज्यस्य कृते उत्तरदायी भाजपेति दलमस्ति इति आरोपितवान्। राजद आजसु वामपन्थी दलानां नेतारः अपि राज्यस्य विभिन्नेषु भागेषु नैर्वाचनिक जनसभाः सम्बोधितवन्तः। ध्यातव्यमस्ति यत् द्वितीयचरणस्य अस्य मतदान 20 दिनांके समनुष्ठास्यते, मतगणना च 23 दिनांके प्रख्यापयिष्यते। क्रिकेट प्रतिस्पर्धायाम् अद्य सायं जोहान्सबर्ग नगरस्य वंडरर्स क्रीडांगणे चतुर्थे अन्तिमे च द्वन्द्वे भारतं दक्षिण अफ्रीकादलेन सह क्रीडिष्यते इति वार्ताः।